गणानान्त्वा गणपतिगुम्मवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मनस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवं बभूवते धनुः शिवाशरव्यायातवत ज्ञानो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तयानस्तनुवाशन्तमया गिरिशन्ताभिजागजीः यामिषुम् गिरिशम् तहत्तेऽभिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माघिगुंसिः पुरुषम् जगते शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना असते अध्य वोचददि वक्ता प्रथमो दैव्योऽभिषके अहेगश्च सर्वाञ्जं भयत् सर्वात्सयातु धान्यः अतौ यत्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चे मागुं रुद्रा अभिदो दिक्षश्रिदात्सहस्रशो वै शागुं हेडयीमहे अतव्यो बतपतिनीलग्रेवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहाद्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अधो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयो रात्रियोज्याम् याश्च देहस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुं सहस्राक्षशतेषु दे निषीर्य शल्यानामुका शिवो न सुमना भव विज्यम् दनुक्रवर्धिनो विशल्यो बाणवागुम् उत अनिशन्नस्येषव आभुरस्य निशम् गधिः या ते हे दिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्वायुधायानाददाय धृष्टवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् विणक्तु विश्वतः अधो यगिषु दित्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्मिञ्जरायत्रि श्रीमते पधीनां पतये नमो नमो बभ्रुषाय विव्याधिने नाराम् पतये नमो नमो हरिकेशायोपवेतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो द्रागातता विने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्तपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्दये वारिवत्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृष्णवेताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनां पतये नमो नमः कगुभाय निषङ्गिने तेनानां पतये नमो नमो निषङ्गिन इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः श्रीकाव्येभ्यो जिगागुं सद्भ्यो मुष्णतां पतये नमो नमो श्रीमद्भ्यो नक्तं चरद्य प्रगृन्तानां पतये नमो नम उष्णीषिने गिरिचराय कुलुञ्चानां पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आदन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्चयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सभाभ्यः सभापदिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपदिभ्यश्च वो नमः नमः व्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगनाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रतेभ्यो ेभ्यश्च वो नमो नमो रतेभ्यो रतपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमः तक्षद्भ्योरथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमः स्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्धिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविष्टाय च नमो मीडुष्टवाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयते च नमो वृद्धाय च संवृत्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्र्याय च शेभ्याय च नमः ओर्म्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च पुत्न्याय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावविन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च घनन्याय च नमो दृष्टवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सदस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेध्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राज्य ಶಂಖಾಯ ಚಾರುಣಾಯ ಚ ನಮ ಶಂಖಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ವಧಾಯ ಚ ದೂರೇ ವಧಾಯ ಚ ನಮೋ ಹಂದ್ರೇ ಜಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮ ಶಂಭವೇ ಚ ಮಯೋ ಭವೇ ಚ ನಮ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮ ತೀರ್ಥ್ಯಾಯ ಚ ಕೋಲ್ಯಾಯ ಚ ನಮ ಪಾದ್ಯಾಯ ಚ ಪಾದ್ಯಾಯ ಚ ನಮ ಪ್ರತರಣಾಯ ಚೋತ್ತರಣಾಯ ಚ ನಮ ಆತಾದ್ಯಾಯ ಚಾಲಾದ್ಯಾಯ ಚ ನಮ ಚಷ್ಟ್ಯಾಯ ಚ ಭೇನ್ಯಾಯ ಚ ನಮ ಸಿಕತ್ಯಾಯ ಚ ಪ್ರವಾಕ್ಯಾಯ ಚ ನಮ ಹಿರಣ್ಯಾಯ ಚ ಪ್ರಪತ್ಯಾಯ ಚ ನಮ ಕಿಗುಂಶಿಲಾಯ ಚ ಕ್ಷಯನಾಯ ಚ ನಮ ಕಪರ್ಧಿನೇ ಚ ಕುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಟ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮ ತಲ್ಪ್ಯಾಯ ಜಗೇಹ್ಯಾಯ ಚ ನಮ ಕಾಟ್ಯಾಯ ಜಗಪರೇಷ್ಟಾಯ ಚ ನಮೋ ಹೃದಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮ ಪಾಗುಂಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮ ಶುಷ್ಟ್ಯಾಯ ಜಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಪ್ಯಾಯ ಚ ನಮ ಓರ್ಮ್ಯಾಯ ಚ ಸೋರ್ಮ್ಯಾಯ ಚ ನಮ ಪರ್ಣ್ಯಾಯ ಚ ವರ್ಣಶಧ್ಯಾಯ ಚ ನಮೋ ಪಗುರಮಾನಾಯ ಚ ವಿಘ್ನತೇ ಚ ನಮ ಆಕಿನತೇ ಚ ಪ್ರಕಿನತೇ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೇಭ್ಯೋ ನಮ ಆಮೀವತ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧಸಸ್ಪದೇ ದರಿದ್ರನ್ನೀಲಲೋಹಿತಾ ಯೇಷಾಂ ಪುರುಷಾಣಾಂ ಯೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾರೋಮೋ ಯೇಷಾಂ ಕಿಂಚನ ಮಮತ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತರೋ ಶಿವಾ ವಿಶ್ವಾಃ ಭೇಷಜೇ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೇ ತಯಾನೋ ವೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯದಾ ನಶ್ಯಮಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಳಾನೋ ರುದ್ರೋ ತನೋ ಮಯಸ್ಕೃತೇ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಜ್ಞಂ ಜಯೋಶ್ಚ ಮನುರಾಗ್ಯಜೇ ಪಿತಾ ತದಶ್ಯಾಮತವ ರುದ್ರ ಪ್ರಣೀತೌ ಮಾನೋ ಮಹಾಂತಮುದಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುದಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇ ತನಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರಭಾವಿತೋ ವದೇ ಹವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತೇ ಗೋಗ್ರಮುದ ಪೂರುಷಗ್ನೇ ಶಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ತೇ ಅಸ್ತು ರಕ್ಷಾ ಜನೋ ಅದಿಶ ದೇವ ಬ್ರೂಯತಾ ಜನ ಶರ್ಮ ಯಚ್ಚ ದ್ವಿಪರ್ವಾ ಸುಹಿ ಶ್ರುತಂ ಗತ್ತ ಸದಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ವಮುಗ್ರಂ ಪ್ರಡಾಜರಿದ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂದೇ ಅಸ್ಮನ್ನಿವ ಬಂಧು ಸೇನಾ परिणो रुद्रस्य हेतुर्विणक्तु परित्वेषस्य दुर्मतिरघायो अवस्थिरा भगवद्यस्तनुष्वमेणुत्तोकायतनयाय मृडया मेडुट्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधं निधाय कृत्यं वसानः चदपि नागं बिभ्रदागहे विगिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुं हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोत्तव हेतयः दासामीशानो भगवः पराजीरामुखाग्रदे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुं सहस्रयो जने वधन्वानि धन्मसे अस्मिन् महत्यर्णवेन्दरिक्ष्ये भवा अधे नीलग्रीवाशितिगण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिगण्ठाधिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवाभिलोहिताः ये भूता नामधिपतयो विशिकासक्कबर्धिनः ये अन्येषु विविध्यन्ति पात्रेषु विपदो जनान् ये पथाम्बनिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रजरन्ति सृगावन्तो निषङ्गिणः येतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि ये शामन्नं वातो वरुषमिषभस्तेभ्यो दश प्राजे दश दक्षिणा दश प्रदेशेर्गशो द्वास्तेभ्यो नमस्ते नो मृडयन्तु देयं विष्णो यश्च नो द्वेर्चितम् जम्भे ददामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् नृत्योर्मुक्षेयमामृतान् यो रुद्रो अग्नव्यो अप्सु योषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतं पाशा मृत्योमत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युं मे पाहि तमस्तु हि यस्विषस्तु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रं नमो भिर्देवमसुरं ध्रुवस्य अयं मे हस्तो भगवान् अयं मे भगवत्तरः अयं मे विश्वभेषजो यगुं शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रदितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे ध्यानश्च मे सुश्च मे चित्तं च माधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च मओजश्च च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मे मश्च मे भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वश्मा च मेन्द्राभुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमानं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मरुद्धं च मरुद्भिश्च मे कृप्तं च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे गन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञातं च मे सोश्च मे प्रसोश्च मे शीलं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे देवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्दिश्च मे सपेतिश्च मे कृशिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयिश्च मे दायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे शुश्च मे देहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे कल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्णपत्यं च मे कृष्णपत्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूजा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे दाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पोष्णश्च मे पात्रीवतश्च मे आर्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे निष्णीयाश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवने च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृच्च म आधवनीयश्च म आग्नेघ्रम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे त्वचताश्च मे वभृतश्च मे स्वराकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे द्वित्यवाच्च मे द्वित्यौ हि च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हि च मे पष्टवाच्च मे पष्टौ हि च म उक्षा च मे वशा च मऋषभश्च मे देहश्च मे नड्वाच्च मे देनश्च महायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे शौच मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे ष्टाविगुंसतिश्च मे द्वात्रिगुंशच्च मे षत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेष्टाचत्वारिगुंशच्च मे वाजश्च प्रथवश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इरा देवोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदानि शगुं त्रिषद्विश्वे देवासो तवाच पृथिविमातर्मा माहिगुं दे मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ दर्चय्यो रावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स्वभूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदकम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वौ दैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभे तस्मात् विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता vasanto asya sidajyam vishma itma sharadhavihe sapta asya san paridhayaha tri sapta samidhakrita devayadvyagyam tanvana abadnan purusham pashum tam yagyam varihishe praukshanda purusham jatamagratah tena deva ayajanta sadhyarushayaschaye tasmad yagyat sarvahutah samvrutam prashadajyam pashogastagaschagrevayavyana aranyanyamyaschaye tasmad yagyat sarvahutah tujasamani jagnire chandagumse jagnire tasmat yajustasmad ajayata tasmad ashva ajayanta yeke jo bhayadatah gavo ajagnire tasmat tasmad jata ajavayah yat purusham yadadoh kadidhavya kalpayan mukham kimasya kau baho kavurupada uchede brahmano asya mukhamasir bahura janyakritah uru dadasya yadvaishah padhyagum shudra ajayata chandrama manaso jatah chaksho suryo ajayata mukhadindrascha agnischa pranadvayurajayata nabhya asidantariksham sheshnodhyo samavartata padhyam bhumirdishashrotrat tata lokagum akalpayan vedahametam purusham mahantam adityavarnam tamasastu pare sarvani rupani vichityadiraha namani krutva vivadhanyadaste dhata purastadhyamuda jahara shakra pravidvan pradishaschatasraha tamevam vidvanamruta iha bhavati nanyapantha ayanaya vidyate yagyena yagyamaya janta deva tani dharmani pratamanyasan te hanakam mahimanas sachante yatra purve sadhya santi deva adhya sambodha prativyairasa acha vishvakarmana samavartatadhe tasya tvashta vidadadrupamete tat purushasya vishvamajanamagre vedahametam purusham mahantam adityavarnam tamasaparastat tamevam vidvanamrita iha bhavati nanyapanta vidyate yanaya prajapatischarati garbhe antah ajayamano bahudha vijayate tasya dhira parijananti yonim marishenam padamichanti vedasah yo devebhya atapati yo devanam purohitah purvo yo devebhyo jatah namo ruchaya brahmaye rucham brahmam janayantah deva agre tatat bruvanna yastvaivam brahmano vidyat तस्य देवाः सन्वशे क्रेष्टते लक्ष्मीस्य पत्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्चय्योरावृणीमहे गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम् हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् पोषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगुम् हुवेम प्रातर्जितम् भगमुग्रगुम् हुवेम वयम् पुत्रमदितेर्यो विधत्ता आद्रश्चिद्यम् मन्यमानस्तुरश्चिद्राजा चित्यम् भगम् भक्षेत्या भगप्रणेतर्भगसत्यराधो भगे माम् धियमुदवदन्नः भगप्रणो जनयगोभिरश्वैर्भगप्रणविर्नुवन्तः स्याम उदेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्ना उदोदिता भगवन् सूर्यस्य वयम् देवानागुम् सुमतो स्याम भग एव भगवागुम् अस्तु देवास्तेन वयम् भगवन्तः स्याम तम् तावगः सर्व यज्जो हवेमि स नो भगपुर एता भवेह समद्भरायोषसो न मन्तदधिक्रावे वसुचये पदाय अर्वाचीनम् वसुविदम् भगन्नो रथमिवाश्वा वाजिन आवहन्तु अश्वावतीर्गोमतीर्न उषासो वीरवति सदमुच्छन्तु भद्राः ऋतम् दुहाना विश्वत प्रपीणा योऽयम् पात स्वस्तिभिः सदा नः यो माग्ने भागिनगुम् सन्तमता भागम् चिकीर्षति अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह तामावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयम् दामश्वम् पुरुषानहम् अश्वपूर्वानतमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीमा देवे दुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारा मात्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् वृणे ఆదిత్యవర్ణే తపసోధిజాతో వనస్పతిస్తవ వృక్షోథ బిల్వః తస్య ఫలాని తపసానుదంతు మాయాంతరాయాశ్చ బాహ్యా అలక్ష్మీ ఉపైతు మాం దేవ సఖః కీర్తిశ్చ మనినా సహ ప్రాదుర్భూతోస్మి రాష్ట్రేస్మిన్ కీర్తిమృద్ధిం దదాతు మే శుక్తిపాదామలాం జ్యేష్ఠామలక్ష్మీర్నాశయామ్యహం అభూతిమసమృద్ధిం చ సర్వానిర్నుదమీ గృహాత్ గంధద్వారాం దురాదర్శాం నిత్యపుష్టాం కరీషిణీ ఈశ్వరీగుం సర్వభూతానాం తామిహోపఃపరే శ్రియం మనసః కామమాకూతిం వాచః సత్యమశీమహే పశూనాం రూపమన్నస్య మహిశ్రీ శయతాం యశః కర్దమేన ప్రజాభూతా మహి సంభవ కర్దమా శ్రియం వాసయ మే కులే మాతరం పద్మమాలినీ ఆపసృజంతు సిగ్నాని చిక్లీతవసమే గృహే నిచ దేవీం మాతరం శ్రియం వాసయ మే కులే ఆర్ద్రాం పుష్కరిణీం పుష్టిం పింగళాం పద్మమాలినీం చంద్రాం హిరణ్మయీం లక్ష్మీం జాతవేదో మహావహ ఆర్ద్రాం యత్కరిణీం యష్టిం సువర్ణాం హేమమాలినీం సూర్యాం హిరణ్మయీం లక్ష్మీం జాతవేదో మహావహ తామావహ జాతవేదో లక్ష్మీ మనపగామినీ యస్యాం హిరణ్యం ప్రభూతం గావో దాస్యోశ్వాన్ విందేయం పురుషానహం యస్సు చిప్రయతో భూత్వా జుహుయారాజ్యవన్వహం శ్రియం పంచదశర్చం చ శ్రీకామః సతతం జపేత్ పద్మానే పద్మఊరు పద్మాక్షి పద్మసంభవే త్వం మాం భజస్వ పద్మాక్షి యేన సౌఖ్యం లభామ్యహం అశ్వదాయే గోదాయే ధనదాయే మహాధనే ధనం మే జుషతాం దేవీ సర్వకామాశ్చ దేహి మే పుత్ర పౌత్ర ధనం ధాన్యం హస్త్యశ్వాది గవేరథం ప్రజానాం భవసి మాత ఆయుష్మంతం కరోతు మాం ధనమగ్నిర్ధనం వాయుర్ధనం సూర్యోధనం వసు ధనమింద్రో బృహస్పతిర్వరుణం ధనమశ్నుతే వైనతే యసోమం పిబసోమం పిబతు వృత్రః సోమం ధనస్య సోమినో మహ్యం దదాతు సోమినః న క్రోధో న జమాత్సర్యం న లోభో న శుభామతిః భవంతి కృత పుణ్యానాం భక్తానాం శ్రీ సూక్తం జపేత్ సదా పర్షంతు తే విభావరి దివో అభ్రస్య విద్యుతః రోహంతు సర్వ బీజాన్యవ బ్రహ్మద్విషో జహి పద్మ ప్రియే పద్మిని పద్మహస్తే పద్మాలయే పద్మజలాయతాక్షే విశ్వ ప్రియే విష్ణుమనోనుకూలే తత్పాద పద్మమై సన్నిధస్వా యాసా పద్మాసనస్థా విపులకటితటే పద్మపత్రాయతాక్షే గంభీరావర్తనా విస్తనభరణమితా శుభ్రవస్తోత్తరీయా లక్ష్మీ దివ్యైర్గజేంద్రైర్మణిఘనఖచితై స్నాపితా హేమగుంభై నిత్యం సా పద్మహస్తా మమ వసతు గృహే సర్వమాంగళ్యయుక్తా లక్ష్మీ క్షీరసముద్రరాజతనయాం శ్రీరంగరామేశ్వరీ దాసీభూత సమస్తదేవనితాం లోకైకదీపాంగురాం శ్రీమన్మందకటాక్షలబ్ధ విభవ బ్రహ్మేంద్ర గంగాధరాం వాం త్రైలోక్య కుటుంబినీం సరసిజాం వందే ముకుంద ప్రియాం సిద్ధలక్ష్మీర్మోక్షలక్ష్మీర్జయలక్ష్మీ సరస్వతీ శ్రీలక్ష్మీర్వరలక్ష్మీ ప్రసన్నా మమ సర్వదా వరాంకుశోపాశమభీతిముద్రాం కరేర్వహంతీం కమలా సరస్తాం బాలార్కకోటి ప్రతిభాం త్రినేత్రాం వదేహమం వాం జగదీశ్వరీం త్వాం సర్వమంగళమాంగళ్యే శివే సర్వార్థసాధికే శరణ్యే త్ర్యంబకే దేవీ నారాయణి నమోస్తుతే మహాలక్ష్మీ చ విద్మహే విష్ణుపత్నీ చ ధీమహే తన్నో లక్ష్మీ ప్రచోదయాత్. ఓం శాంతి శాంతి శాంతి. ఓం జాతవేదసే సురవామసో మమ రాతి యతో నిదహాతి వేదః సన పరిషదతి దుర్గాని విశ్వానావేవ సింధుం దురితాత్యగ్నిః తామగ్నివర్ణాం తపసా జ్వలంతీం వైరోచనీం కర్మఫలేషు జుష్టాం దుర్గాం దేవీగుం శరణమహం ప్రపద్యే సుతరసి తరసే నమః అగ్నే త్వం పారయానవ్యో అస్మాన్ స్వస్తిభిరతి దుర్గాని విశ్వా పూష పృథ్వీ బహుళాన ఉర్వే భవతో కార్యతనయా యశయ్యో విశ్వాని నో దుర్గ జాతవేద సింధుం ననావా దురితాతి పర్షే అగ్నే అత్రివన్మనసా గృణానో అస్మాకం బోధ్యవితాతనూనా ఋతనాజితగుం సహమానముగ్రమగ్నిగుం భువేమ పరమాస్తదస్తాత్ సన పరిషదతి దుర్గాని విశ్వాశామద్దేవో అతి దురితాత్యగ్నిః ప్రత్యోషికమేద్యో అధ్వరేషు సనా చ హోతానవ్యశ్చ సత్సే స్వాంజాగ్నే తనువం పిప్రయ స్వాస్మభ్యం చ సౌ భగమాయజస్వ గోభిర్దుష్ట మయుజో నిషిక్తం తవేంద్ర విష్ణు రఘు సంచరేమ నాకస్య పృష్టమభి సంవసానో వైష్ణవీం లోక ఇహ మాదయంతాం కాత్యాయనాయ విద్మహే కన్యకుమారి ధీమహే తన్నో దుర్గే ప్రచోదయాత్. ఈశాన సర్వవిద్యానామీశ్వర సర్వభూతానాం బ్రహ్మాధిపతి బ్రహ్మణోధిపతి బ్రహ్మా శివో మే అస్తు సదాశివోం తద్విష్ణో పరమం పదగుం సదా పశ్యంతి సూరయః దివేవ చక్షురాతతం తద్విప్రాసో విపన్యవో జాద్విభాగుం సస్సమిందతే విష్ణోర్యత్ పరమం పదం నారాయణాయ విద్మహే వాసుదేవాయ ధీమహే తన్నో విష్ణు ప్రచోదయాత్. తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహే తన్నో రుద్ర ప్రచోదయాత్. ఓం సాయీశ్వరాయ విద్మహే సత్యదేవాయ ధీమహే తన్నః సర్వ ప్రచోదయాత్. హంస హంసాయ విద్మహే పరమహంసాయ ధీమహే తన్నో హంస ప్రచోదయాత్. స్వస్తి ప్రజాభ్యః పరిపాలయంతాం न्याहेन मार्गेन महिमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः